ॐ श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ सप्तमोऽध्यायः श्रीभगवानुवाच यदाथ महाभाग तच्चिकीर्षितमेव मे ब्रह्मा भवो लोकपाला सर्वासं मेभिकाङ्क्षिणः मया निष्पादितं यत्र देवकार्यमशेषतः यदर्थमवतीर्णोह मौशेन ब्रह्मणार्थितः कुलं वै शापनिर्दघ्नं नङ्क्ष्यत्यन्योन्यविग्रहात् समुद्रसप्तमेह्नीताम् पुरी च प्लावयिष्यति यर्हि वायं मया त्यक्तो लोकोऽयन्नष्टमङ्गलः भविष्यत्यचिरात् साधो कलिनापि निराकृतः नमस्तव्यं त्वयैवेह मया त्यक्ते महीतले जनो धर्मरुचिर्भद्र भविष्यति कलौ युगे त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु मय्यावेश्य मनः सम्यक् समदृग्विचरस्वगां यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः न स्वरं गृह्यमाणै च विद्धि माया मनोमयम् पुंसो युक्तस्य नानार्थो भ्रमः सगुणदोषभाक् कर्माकर्म विकर्मेति गुणदोषधियोभिधा तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदै जगत् आत्मनीक्षस्व वितत मात्मानं मय्यधीश्वरे ज्ञानविज्ञानसंयुक्त आत्मभूतशरीरिणाम् आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे दोषबुद्ध्यो भयातीतो निषेधान्न निवर्तते गुणबुद्ध्या च विहितं न करोति यथार्भकः सर्वभूतसुरिच्छान्तो ज्ञानविज्ञाननिश्चयः पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः श्रीशुक उवाच इत्यादिष्टो भगवता महाभागवतो नृप उद्धवः प्रणिपत्याह तत्त्वजिज्ञासुरच्युतम् उद्धव उवाच योगेश योगविन्यास योगात्मन्योगसंभव निःश्रेयस सायमी प्रोक्तस्त्याग सन्यासलक्षणः त्यागो यं दुष्करो भूमन् कामानां विषयात्मभिः सुतरां त्वयि सर्वात्मन् न भक्तैरिति मे मतिः सोऽहं ममाहमिति मूढमतिर्विगाढस्त्वन्मायया विरचितात्मनि सानुबन्धे तत्त्वयि जसा विगदितं भवता यथाहं संसाधयामि भगवन्ननुषाधिवृत्त्यं सत्यस्य ते स्वदृशात्मनात्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे सर्वे विमोहितधियस्तव मायये मे ब्रह्मादयस्तनुवृतो बहिरर्थभावाः तस्माद्भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यं निर्विण्णधीरहमुहवृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये श्रीभगवानुवाच प्रायेण मनुजालोके लोकतत्त्वविचक्षणाः समुद्धरन्ति ह्यात्मान मात्मनैवाशुभाशयात् आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते पुरुषत्वे च मां धीरा साङ्ख्ययोगविशारदाः आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् एकद्वित्रिचतुष्पादो बहुपादस्तथा पदः बह्व्यस्सन्ति पुरस्सृष्टास्तासां मे पौरुषी प्रिया अत्र मां मार्गयन्त्यद्धा युक्ता हेतुभिरीश्वरं गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः अत्राप्युदाहरन्तीममितिहासं पुरातनम् अवधूतस्य संवादं यदोरमितत्तेजसः अवधूतं द्विजं कैचिच् चरन्तमकुतो भयम् कविन्निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् यदुरुवाच कुतो बुद्धिरियं ब्रह्मन्न कर्तुस्तु विशारदा यामासाद्य भवालोकम् विद्वांश्चरति बालवत् प्रायो धर्मार्थकामेषु विवित्सायाय च मानवाः हेतुनैव समीहन्ते आयुषो यशसः श्रियः त्वन्तु कल्पक कविर्दक्षः सुभगो मृतभाषणः न कर्ता नेहसे केचिज् जडोन्मत्तपिशाचवत् जनेषु दह्यमानेषु कामलोभदवाग्निना न तप्यसेऽग्निना मुक्तो गङ्गाम्भस्थ इव द्विपः त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः श्रीभगवानुवाच यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा पृष्टः स भाजितः प्राह प्रश्रयावनतन् द्विजः ब्राह्मण उवाच सन्ति मे गुरवो राजन् बहवो बुद्ध्युपाश्रिताः यतो बुद्धिमुपादाय मुक्तोऽटामीह तां शृणु पृथिवी वायुराकाश मापोऽग्निश्चन्द्रमा रविः कपोतो जगरसिन्धु पतङ्गो मधुकृद्गजः मधुहा हरिणो मीनः पिङ्गलाकुररोर्भकः कुमारी शरकृत्सर्प ऊर्णनाभिः सुपीशकृत् एते मे गुरवो राजंश्चतुर्विंशतिराश्रिताः शिक्षावृत्तिभिरेतेषामन्वशिक्षमिहात्मनः यतो यदनुशिक्षामि यथा वा नाहुषात्मज तत्तथा पुरुषव्याघ्र निबोध कथयामि ते भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् शश्वत्परार्थ सर्वेह परार्थैकान्तसम्भवः साधुशिक्षित भूवृत्तो नगशिष्यः परात्मताम् प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः विषयेष्वाविशन् योगी नानाधर्मेषु सर्वतः गुणदोषव्यपीतात्मा न विषज्जेत वायुवत् पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् अन्तर्हितश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन व्याप्त्याव्यवच्छेदमसङ्गमात्मनो मुनिर्नभस्त्वं विततस्य भावये तेजोबन्नमयैर्भावैर्मेघाद्यैर्वायुनीरितैः न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैः पुमान् स्वच्छः प्रकृतितस्निग्धो माधुर्यस्तीर्थभूर्नृणाम् मुनिः पुनात्यपामित्रमीक्षोपस्पर्शकीर्तनैः तेजस्वी तपसादितो दुर्धर्षोदरभाजनः सर्वभक्षोऽपि युक्तात्मानादत्ते मलमग्निवत् क्वचिच्छन्नः क्वचित्स्पष्ट उपास्य श्रेय इच्छताम् भुङ्क्ते सर्वत्र दातॄणान् दहन् प्रागुत्तराशुभम् स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः प्रविष्ट ईयते तत्तत् स्वरूपोऽग्निरिवैधसि विसर्गाद्याश्मशानान्ताभावादेहस्य नात्मनः कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना कालेन योगवेगेन भूतानां प्रभवाप्ययौ नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् गुणैर्गुणानुपादत्ते यथा कालं विमुच्यते न तेषु युज्यते योगी गोभिर्गा इव गोपतिः बोध्यते स्वेन भेदेन व्यक्तिस्थ इव तद्गतः लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोर्कवत् नाति स्नेह प्रसङ्गो वा कर्तव्यक् क्वापि केनचित् कुर्वन् विन्देत सन्तापं कपोत इव दीनधीः कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ कपोत्या भार्यया सार्ध मुवास कतिचित् समाः कपोतौ स्नेहगुणित हृदयौ गृहधर्मिणौ दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः शय्यासनाटनस्थान वार्ता क्रीडाशनादिकम् मिथुनी भूय विस्रब्धौ चेरतुर् वनराजिषु यं यं वाइच्छति सा राजौ स्तर्पयन्त्यनुकम्पिता तन्तं समनयत् कामं कृच्छ्रेणाप्यजितेन्द्रियः कपोति प्रथमं गर्भं गृह्णति काल आगते अण्डानि सुषुवे नीढे स्वपत्युस्सन्निधौ सति तेषु काले व्यजायन्त रचितावयवाहरेः शक्तिभिर्दुर्विभाव्याभिक् कोमलाङ्गतनूरुहाः प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ शृण्वन्तौ कूजितन्तासान् निर्वृतौ कलभाषितैः तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया विमोहितौ दीनधियौ शिशून् पुपुषतो प्रजाः एकदा जग्मतुस्ताता मन्नार्थन् तौ कुटुम्बिनौ परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् दृष्ट्वा ताल्लुब्धकः कश्चित् यदृच्छातो वनेचरः जगृहे जालमातत्य चरतस्त्वालयान्तिके कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ गतौ पोषणमादाय स्वनीडमुपजग्मतुः कपोती स्वात्मजान्वीक्ष्य बालकाञ्जालसंवृतान् तानभ्यधावत्क्रोशन्ती क्रोशतो वृषदुःखिता सा सकृत्स्नेहगुणिता दीनचित्ता जमायया स्वयै चाबध्यतशिक्षा बद्धान् पश्यन्त्यपस्मृतिः कपोतश्चात्मजान् बद्धानात्मनोऽप्यधिकान् प्रियान् भार्यायै चात्मसमान् दीनो विललापाति दुःखितः अहो मे पश्यतापाय मल्पपुण्यस्य दुर्मतेः अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः अनुरूपानुकूला च यस्य मे पतिदेवता शून्ये गृहे मां संत्यज्य पुत्रैश्वर्याति साधुभिः सोऽहं शून्ये गृहे दीनो मृतदारो मृत प्रजः जिजीविषे किमर्थं वा विधुरो दुःखजीवितः तांस्तथैवावृतायिच्छिग्भिर् मृत्युग्रस्तान् विचेष्टतः स्वयैचकृपणशिक्षु पश्यन्नप्यबुधोपतत् तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् कपोतकान् कपोते च सिद्धार्थ प्रययौ गृहम् एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत् पुष्णन् कुटुम्बं कृपणस् सानुबन्धो वसीदति यः प्राप्य मानुषं लोकम् मुक्तिद्वारमपावृतम् गृहेषु खगवत्सप्तस्तमारूढच्युतं विदुः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे सप्तमोऽध्यायः ॐ श्रीकृष्णार्पणमस्तु।